येन धौता गिरपुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। ओम श्री गुरुभ्यो नमः। हरिः ओम्।
श्रीमद् भगिनि सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। तत्र अद्य अहं चिन्तितवान् किञ्चित् परिवर्तनं कुर्मः आरम्भे इति। तत्र यतोहि तत्र पाठे सर्वे पठन्ति तत्सर्वं भवति, किन्तु आरम्भे एव किञ्चित् सर्वे किञ्चित् वदन्तु इति, वदनस्य अभ्यासः अपि भवतु। अतः तत्र वाक्यत्रयं संस्कृतेन किमपि, तत्र का आरम्भं करोति?
आं महोदय, किं वदनीयं?
किमपि, केवलं संस्कृतेन तावदेव।
अस्तु, अद्य अस्मिन् नगरे यत्र अहं वसामि प्रातःकालारभ्य इदानीं पर्यन्तं वृष्टिः
भवन्ती अस्ति। अस्तु भगिनि, अस्तु,
समीचीनं वा? भवन्ती अस्ति,
बहु समीचीनं भगिनि, समीचीनं।
अपि च अहं कोविड् विषाणुः अतः विषाणोः इत्युक्ते पञ्चमी किं भवति,
विष्णोः
कोविड् विषाणोः तत्र पञ्चमी अर्थे विषाणोः रक्षणार्थं वेक्सिनेशन् न जानामि,
तत्र निवारकः
निवारक औषधं वा?
निवारकम् अथवा निवारकं
निवारकं
निवारक औषधं
निवारक औषधं औषधस्य कृते प्रतीक्षां कुर्वन्ती अस्मि।
समीचीनं भगिनि, समीचीनम्। अस्तु, निवारणं, तत्र औषधं कदा भवति न जानीमः, किन्तु निवारणस्य तत्तु भवति एव खलु। तत्र भवत्याः प्रदेशे कदा भवति इति सूचना आगता वा?
सूचना तु मे मासस्य प्रथमवारपर्यन्तं सर्वेषां कृते सौलभ्यः भवति भविष्यति इति सूचना दत्तं महोदय।
अस्तु अस्तु, प्रथमसप्ताह मे मासस्य प्रथमसप्ताहानन्तरं सर्वे तत्र स्वीकर्तुं शक्नुवन्ति इति वा?
किन्तु प्रायशः तस्य पूर्वमेव किन्तु तस्मात् पूर्वं किन्तु मे मासस्य प्रथमसप्ताहपर्यन्तं तु अवश्येन भवति इति।
अस्तु 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 अस्तु, अतः अस्तु अस्तु, अतः चिन्तनमस्ति तत्र मे मासस्य प्रथमसप्ताह यदा भवति तस्मिन् समये सर्वे तत्र स्वीकृतवन्तः भवन्ति इति,
स्वीकृतवन्तः भवन्ति इति आशयः।
आशा, अस्तु, समीचीनं भगिनि, अस्तु अस्तु अस्तु, तद्भवतु इति वयमपि प्रार्थयामः खलु।
भवतः निवारक औषधम् अभवत् वा?
अभवत् भगिनि, तत्र यतोहि विश्वविद्यालये अस्मि इति कृत्वा तत्र प्रायोरिटि अस्ति, अतः तत्र गतमासे प्रथमवारम् अपि अस्मिन् मासे द्वितीयवारं गत्वा अहं स्वीकृतवान्।
समीचीनं महोदय।
नो चेत् तत्र प्रतीक्षा करणीया आसीत्, किन्तु किन्तु तत्र यद्यपि वयं स्वीकुर्मः किन्तु बालानां कृते तत्र किमपि नास्ति खलु भगिनि, अतः तत्र
किमपि नास्ति,
अतः तत्र पुत्री अस्ति चेत् अद्य अपि तत्र
एतत् अपायम् अपायं किञ्चित् क्षीणः एव अपायः क्षीणः
अपायः क्षीणः इति वदन्ति भगिनि, तत्र इदानीम् अपायः क्षीणः, किन्तु तत्र कोविड् मध्ये किं वदन्ति इत्युक्ते तत्र ये जनाः कोविड् तत्र अनुभूतवन्तः अपि तस्मिन् समये किमपि नासीत् इति उक्तवन्तः, किन्तु अग्रे गत्वा तत्र वर्षद्वयं वर्षत्रयम् अनन्तरं किमपि भवति वा, तत्र तस्याः किं प्रभावः तत्र दूरदृष्ट्या कोविड् तत्र तस्य प्रभावः कीदृशः इति न जानीमः.
आम् आम्
इदानीं किमपि इदानीं किमपि सत्यं भगिनि, अतः तत्र यतोहि न जानीमः तत्र अस्तु तत् आगच्छति गच्छति बालानां कृते किमपि न करोति इति वदन्ति, किन्तु
वयं न जानीमः
भगिनि, अतः एव अस्तु तत्र सावधानम् इदानीमपि अपेक्षितम् इति चिन्तितं.
सत्यं महोदय.
धन्यवादः भगिनि. वदतु भगिनि. अस्तु समीचीनं भगिनि, धन्यवादः.
तत्र
एतादृश आरम्भे कुर्मः इति चिन्तनम् अस्तु. इदानीं गीताञ्जलि भगिनी, इदानीं भवती अपि वदति वा, लक्ष्मी भगिनी नमस्कारः. आरम्भे इदानीं चिन्तनम् अस्ति तत्र वाक्यत्रयं सर्वे ये आगच्छन्ति वदन्ति इति, वाक्यत्रयं न्यूनातिन्यूनं वाक्यत्रयम्.
अस्तु महोदय.
अस्तु अस्तु भगिनि, गीताञ्जलि भगिनी, किमपि तत्र एषः एव विषय कस्मिन्नपि विषये भवत्याः किं सङ्कल्पः.
अस्तु
केवलम् अभ्यासार्थम्.
अद्य सन्ध्याकाले योगासनं कृत्वा भोजनं खादित्वा भवतः कक्ष्याम् अहम् आगच्छामि.
समीचीनं भगिनि. भवती तत्र प्रतिदिनं करोति वा भगिनि योगासनं?
करोमि, किन्तु सन्ध्याकाले तु न करोमि.
अस्तु अस्तु भगिनि, अस्तु
अद्य एव
अद्य तत्र अस्तु भगिनि, समयः लब्धः अद्य. अस्तु
आम् महोदय. तदनन्तरं अधुना एव मया चतुर्थं विशालानि पुष्पाणि दृश्यन्ते मम गृहे महोदय. हिबिस्किस्
चत्वारि
क्षम्यतां, चत्वारि विशालानि पुष्पाणि मम गृहे अधुना सन्ति महोदय. हिबिस्कस् इत्युक्ते चक्र.
सत्यं सत्यं. वर्णः कः, कः वर्णः भगिनि?
श्वेत महोदय.
श्वेत, अस्तु समीचीनं भगिनि. पूजार्थं बहु समीचीनम् अस्ति.
आम् महोदय, किन्तु मध्ये तु
रक्तवर्णः. समीचीनं समीचीनं भगिनि.
जपाकुसुमम् इति अस्ति किल
भगिनि?
जपाकुसुमम् इति वा? अस्तु,
देव्याः प्रिय कुसुमम्.
सत्यं सत्यं भगिनि. अपि तत्र
यदा भवतः कक्ष्याम् अहम् अद्य किं प्रवेशन्ति
प्रवेशनं कुर्वन्ति आसम्
प्रवेशनं कुर्वन्ति तदा भवान् किं हसति इति अहं श्रुत्वा चिन्तितवती किं कारणम् इति.
न जानामि भगिनि, इदानीं न स्मरामि. तत्र प्रायशः तत्र समयस्य परिवर्तनम् अभवत् खलु, अतः तत्र सर्वेषां कृते तत्र क्लेशः भवति वा इति तत्र चिन्तनमासीत्. यतोहि तत्र तत्र साधारणतया किं तत्र अष्टवादने वा सप्तवादने एव वर्गः भवति, किन्तु तत्र वयं किञ्चित्
जानामि कारणं, किन्तु भवतः हसनं श्रुत्वा
सत्यं सत्यं भगिनि, हा तदेव भवति, अतः एव तत्र तत्र हास्यम् आवश्यकमस्ति जीवने,
हास्यं सर्वदा वर्धते एव.
सत्यं सत्यं भगिनि, हा समीचीनं, धन्यवादः भगिनि. अस्तु लक्ष्मी भगिनी अथवा उषा भगिनी का वदति इदानीं?
अहं वदामि वा महोदय?
अस्तु भगिनि, लक्ष्मी उषा भगिनी वदतु भगिनि.
अस्तु महोदय, अहं प्रातःकाले स्नात्वा ध्यानं कृतवती. अनन्तरं मम पौत्रेण सह चलनक्रियां कृत्वा पाकं कृत्वा अनन्तरं मम पौत्रः मम पार्श्वे निद्रां कृतवान्. अनन्तरम् उद्याने सस्यानि कृते, ऐ प्लाण्टेड् वाटर् द प्लाण्ट्स्, कथं
सिञ्चनं कृत्वा तत्र सस्यानां तत्र किं सिञ्चयित्वा अथवा सिञ्चित्वा न स्मरामि भगिनि,
सिञ्चति अथवा
सिञ्चयामि वा
सिञ्चितवती,
हा तादृशमस्ति तादृशमस्ति भगिनि, हा सिञ्चनं कृतवती इति अपि
सिञ्चनं कृतवती. अनन्तरं त्रिवादने चलनक्रियां कृतवती पुनः लेक् मध्ये
सरोवरे तत्र सरोवरम् अस्ति, तत्र किं सरोवरस्य प्रदक्षिणां कृतवती वा?
आं महोदय,
अस्तु भगिनि समीचीनम्, एतत् केलिफोर्निया प्रदेशे खलु भवती?
आं महोदय.
अस्तु भगिनि, तत्र कथम
सरोवरे अस्ति महोदय?
अस्तु भगिनि, तत्र कथम तत्र पौत्रः प्रथमपौत्रः वा
द्वितीयपौत्रः?
अस्तु, अतः अतिप्रियः
अतिप्रियः सर्वदा मम पार्श्वे एव
सः तिष्ठति. अस्तु भगिनि, समीचीनमेव.
अनन्तरं गृहपाठरूपेण किञ्चित् ध्वनिमुद्रणमपि श्रुतवती.
अस्तु भगिनि, बहु समीचीनम्.
पाकं
कुर्वन्ति
अपि च ध्वनिमुद्रणमपि श्रुतवती.
अत्र तत्र अपि यदि उपयोगं करोति चेत् तत्र कुर्वन्ति इति मास्तु, तत्र हा
पाकं लैक् पाकं
कुर्वन्ति तत्र कार्यद्वयम् इति,
पाकं कुर्वन्ति ध्वनिमुद्रणं
श्रुतवती अथवा ध्वनिमुद्रणं शृण्वन्ती
पाकं
कृतवती.
महोदय
वदतु भगिनि,
कुर्वती इति अस्ति खलु
धन्यवादः भगिनि,
पाकं कुर्वती ध्वनिमुद्रणं श्रुतवती.
यदि तत्र कार्यत्रयम् अस्ति चेत् तत्र कुर्वती तत्र किं शृणो
दृष्टव
तस्य स्वतन्त्ररूपं किम् अस्ति, शृणोति इति शृण्वन्ति इति प्रायशः
शृण्वन्ति अस्ति वा महोदय?
लक्ष्मी भगिनी समीचीनं वा?
आम् तदेव अहं चिन्तयामि, कुर्वती एव अहमपि सर्वदा दोषः
भगिनि. अस्तु, कुर्वती शृण्वन्ति अपि अन्यत् कार्यं किमपि कृतवती इति
समीचीनं. अहं व्याक्सिनेशन् प्राप्तवती महोदय.
हा इति वा, अस्तु समीचीनं. द्विवारं तत्र
लेफ्ट् ओवर् व्याक्सिनेशन् महोदय.
ओ अस्तु भगिनि, हा ते वदन्ति तत्र प्राप्तुं शक्नुमः. अस्तु, भवत्याः गृहस्य पार्श्वे एव
गतं महोदय.
अस्तु भगिनि, तत्र किं CVS अथवा
वाल्ग्रीन्स् मध्ये
अस्तु भगिनि समीचीनं.
सर्वे गृहे मम पुत्रः, मम स्नुषा, मम पति, अहम्.
अस्तु भगिनि, बहु समीचीनम्. अस्तु, इदानीं चिन्ता न्यूना अभवत् खलु?
आं महोदय.
अस्तु भगिनि, समीचीनं भगिनि, अभिनन्दनानि.
धन्यवादः महोदय.
समीचीनं भगिनि, अस्तु, धन्यवादः. अस्तु लक्ष्मी भगिनि.
नमस्कारः महोदय. अहं किं वदामि, अहम् अपि प्रातःकाले उत्थाय किञ्चित् पाकं पचनक्रियां कुर्वती अस्मि.
अस्तु भगिनि,
इदानीं समापितं नास्ति.
पाकक्रिया इति अथवा कार्यम् इति उक्तवती वा भवती?
पचनक्रिया इदानीं न समाप्ता
यतोहि तत्र विशेषणं, तत्र पचनक्रिया कीदृशी इत्युक्ते न समाप्ता इति.
महोदय, तत्र प्रश्नः, पचनं इति एव अपि सम्यक् वा? तत्र
पचनक्रिया इति
क्रिया भवति वा?
पचनक्रिया इति मन्ये, अथवा पाकक्रिया अपि,
पाकम् इति अपि भवितुं
भवितुमर्हति. तत्र ल्युडन्तं नास्ति, किन्तु पाकक्रिया अपि तत्र वयं अवगच्छामः इति मन्ये खलु. तत्र डिफाल्ट् अस्ति तत्र ल्युडन्तं, नो चेत् तत्र
पचनमपि पाकं समानपदम्
अर्थे समानं इति भगिनि. भगिनि समीचीनं वा? अन्य प्रश्नः अस्ति वा?
न न, तदेव महोदय. तत्र क्रिया इत्यस्य आवश्यकता भवनीयम् इति नास्ति इति वा?
नास्ति, किमपि तत्र किमपि क्रिया खलु भगिनि, अतः तत्र तत्र यत्किमपि स्थापयित्वा तद् तादृशक्रिया इति.
मम गृहे अपि जबागुस्म सस्यम् अस्ति महोदय,
रक्तवर्ण. तत्र किं कीदृशरक्तवर्ण तत्र निबिड, तत्र किं
रक्तवर्णः एव.
अस्तु भगिनि, बहु समीचीनमस्ति. देव्याः प्रियकुसुम पुष्पम् अस्ति. अस्तु,
मम गृहे पञ्चदश रोसस् पाटल किमस्ति महोदय? पाटलपुष्पं महोदय सन्ति.
अस्तु भगिनि, अस्तु,
पञ्चदश न, अधिकम् अस्ति महोदय,
विंशत्यधिकम्. अस्तु भगिनि, तत्र भवती एव सिञ्च.
आं महोदय.
अस्तु अस्तु, समीचीनम् समीचीनं भगिनि.
मह्यं बहु रोचते महोदय गार्डनिङ्ग्.
अस्तु भगिनि, समीचीनं भगिनि. अस्तु,
कथं वदनीयं महोदय
गार्डनिङ्ग्? किं वदामः तत्र,
उद्यानक्रिया
न न, तत्र किम्
उद्यानपालक
सः तु, किन्तु यः
उद्यानपालनं,
उद्यानपालनं तद् मेण्टेनिङ्ग् द गार्डन् इति वदतु भगिनि.
रोचते मह्यं, रोचते
सा क्रिया, रोचते.
सस्यपालनम् अस्ति वा महोदय? सस्यपालनं, सस्यवर्धनं
तादृश भवति प्रायश भगिनि. पालनं समीचीनं,
सस्यपालनक्रिया मह्यं बहु रोचते.
रोचते, अस्तु भगिनि, सस्यपालनाक्रिया. अस्तु भगिनि, समीचीनं. अस्तु भगिनि, अपि तत्र केलिफोर्निया प्रदेशे तु बहु अनेकानि
सण्डे
भानुवासरे
अहं नर्सरि, किं वदामि महोदय,
हा यत्र सस्यानि लभ्यन्ते
यत्र सस्यानि लभ्यते अहं तत्र
सस्यापणम् इति
सस्यापणं तत्र वारं वारं गमिष्यन्
अनेकानि क्रीणाति
अनेकानि क्रीणाति महोदय
अस्तु भगिनि क्रीणामि
क्रीणामि
अस्तु भगिनि समीचीनं हा अस्तु अस्तु समीचीनम् इदानीं तत्र
महोदय एकं विषयम् अहं वक्तुम् इच्छामि अद्य मया सार्ध षड्वादने वा पादोन सप्तवादने वा मया गन्तव्यम् अतः क्षम्यताम्
चिन्ता मास्तु भगिनि चिन्ता मास्तु भगिनि तत्र चिन्ता मास्तु अस्तु
अनन्तरं गतवर्गे गीता अत्र गीताश्लोकाः अर्थाः चर्चां कृतवन्तः वयम् अत्र गोचर इन्द्रियगोचराः इति इन्द्रियैः ग्राह्यं
सत्यं भगिनि
श्रवण इन्द्रियैः ग्राह्यं
शब्दः
यदा शब्दः शब्दः अनन्तरं स्पर्शं गन्धं
रसं रूपं
रसं रूपं
सत्यं पञ्चगुणाः
इन्द्रियगोचराः पञ्च
पञ्चेन्द्रियगोचराः समीचीनं भगिनि सत्यं सत्यं
मिलित्वा दश
मिलित्वा दश अस्तु भगिनि समीचीनं
इन्द्रियाणि इन्द्रियगोचराः
अतः तत्र दश इति आगतम् अस्तु भगिनि धन्यवादः भगिनि धन्यवादः
महोदय प्रश्नः महोदय मम सर्वेभ्यः नमः अपि च सर्वेषां नमस्कारः सर्वेभ्यः नमस्कारः इति सम्यक् अस्ति वा न सम्यक् अस्ति वा महोदय किं सर्वेभ्यः चतुर्थी विभक्ति अस्ति अतः नमः इति एव वदनीयं न महोदय तत्र
तत्र सर्वेभ्यो नमः इति एव मया सर्वदा श्रुतं किन्तु तत्र सर्वेभ्यः नमस्कारः इति
नमस्कारः आकारान्त अकारान्त पुंलिङ्गः अस्ति न महोदय नमस्कारः
सर्वेषां नमस्कारः इति अपि वदन्ति सर्वेषां नमस्कारः इति तत्र किन्तु सर्वेभ्यो नमस्कारः इति तत्र चिन्तनीयमस्ति भगिनि एकवारं पृष्ट्वा अहं वदामि
सर्वेषां स्वागतम् अस्ति न महोदय
सर्वेषां स्वागतं तत्तु समीचीनमेव
सर्वेभ्यः स्वागतं न आगच्छति
न सर्वेभ्यो स्वागतं न तद् न भवति भगिनि अस्तु भगिनि धन्यवादः नमस्कारः वेदा भगिनि नमस्कारः
नमस्कारः
चिन्ता मास्तु भगिनि भवती अपि तत्र सर्वे तत्र वाक्यत्रयम् उक्तवन्तः भवती अपि तत्र वाक्यत्रयं वक्तुम् इच्छति वा
संस्कृते केवलं शृणोमि अद्य
अस्तु अस्तु भगिनि अस्तु अस्तु चिन्ता मास्तु अस्तु तर्हि अस्तु तर्हि इदानीं तत्र आरम्भं कुर्मः तत्र गीताञ्जलि भगिनी तत्र पुटसङ्ख्या अस्ति पञ्चविंशतिः तत्र प्रायशः प्रथमभ्य परिच्छेदः यः अस्ति तं पठितवन्तः किन्तु एकवारं तत् पठित्वा तं पठित्वा अग्रे गच्छामः भगिनि
महोदय अधुना पठामि वा
अस्तु पठतु भगिनि पुटसङ्ख्या अस्ति पञ्चविंशतिः
अस्तु अस्तु रक्तवर्णैः अपि पठामि वा
अस्तु भगिनि
नद्यां निमिज्जतोः बालयोः प्राणरक्षणं कृतवतः छात्रस्य सत्यजितः सम्माननसमारम्भः प्रवर्तमानः अस्ति दूरदर्शनेन प्रसार्यमाणः सः कार्यक्रमः एवम् अस्ति एतम् उच्चैः पठत अवगच्छत च
अतः तत्र किम् अस्ति कस्य किं प्रवर्तमानः अस्ति समारम्भः
इत्युक्ते सम्मानसमारम्भः प्रवर्तनम् अस्ति अधुना
कस्य कस्य सम्माननम्?
हा, एकम् एकः बालकः अस्ति, सः बहु किं
सः तस्य नाम अस्ति सत्यजित्,
सत्यजितः सत्यजित्
सत्यजित् इति हा बालकस्य नाम अस्ति सत्यजित् इति
सत्यजित् सत्यजित् सत्य सत्यजित् किं
निमज्जतोः
क्षम्यतां निमज्जतोः बालयोः नद्यां यदा सन्ति यदा सः तौ द्वौ बालकौ सः सहायं कृत्वा
तयोः प्राणरक्षणं
प्राणरक्षणं पूर्वतः
कृतवान् हा तत्र कृतवान् तत्र कृतवतः इति कृतवान् इति पदस्य हा सत्यजित् कृतवान् इदानीं सत्यजितः कृतवतः इति विभक्तिः का तत्र
तत्तु षष्टि महोदय
हा षष्टि अतः तत्र सत्यजित् कृतवान् कृतवतः सत्यजितः तस्य
सम्मान
समारम्भः
कार्यक्रमः अधुना
भवति प्रवर्तमानः अस्ति अथवा इदानीं प्रवर्तनः प्रवर्तते समीचीनं भगिनि
कुत्रापि दर्शयति इति दूरदर्शनेन
न दूरदर्शनेन इत्युक्ते टेलिविजन् तत्र दूरदर्शनेन
दूरदर्शनमाध्यमेन
तत्र एषः कार्यक्रमः प्रसार्यमाणः अस्ति अतः तत्र साक्षात् कार्यक्रमः अपि इदानीं चलन् अस्ति अपि तस्य प्रसारणम् अपि
समानकाले
भवति हा दूरदर्शनमाध्यमेन भवति इति अतः तत्र अन्ये जनाः अपि तत्र तं कार्यक्रमं दृश्यन्तः सन्ति
अथवा द्रष्टुं
शक्नुवन्ति
अस्तु पठामि वा महोदय
हा अस्तु भगिनि पठतु भगिनि अहं केवलं तत्र चिन्तयामि दृश्यन्ति इति उक्तवान् किन्तु तत्र शतन्त्ररूपं किम् अस्ति तत्र पश्यन् हा क्षम्यतां पश्यन्तः हा पश्यन् पश्यन्तौ पश्यन्तः पश्यन्तः सन्ति दृश्यन्तः इति नास्ति हा पश्यन्तः
अन्यजनाः
अन्यजनाः
अस्तु
अग्रे पठतु
अध्यक्षः सर्वेभ्यः नमः महत्यां विपदि समागतायाम् आत्मनः प्राणान् तृणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय वयम् अस्यां संसदि समागताः स्म
तत्र केवलं किम् अस्ति तत्र वयं किमर्थम् अत्र स्मः सत्यजितः सम्माननाय
अयधीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च वीरतापुरस्कारान् प्राप्तवान् अस्ति
सः कस्मात् पुरस्कारान् प्राप्तवान्
सत्यजित् कस्मात् पुरस्कारान् प्राप्तवान् इत्युक्ते सत्यजित् प्रधानमन्त्रिणः मुख्यमन्त्रिणः च
अतः तस्मात् सः प्राप्तवान् अथवा प्रधानमन्त्री धीरतापुरस्कारं सत्यजित् इति अस्ति सत्यजित् पदस्य चतुर्थी किम् अस्ति
सत्यजिते
सत्यजिते दत्तवन्तः अथवा दत्तवान् प्रधानमन्त्री
दत्तवान् अपि च प्रधानमन्त्री अपि मुख्यमन्त्री दत्तवन्तौ
समीचीनम्. अग्रे
अग्रे एतत् अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति.
तत्र गौरवम् अस्माकं गौरवं तत्र भवति एषः विषयः
सः
प्राप्तवान् इति विषयः गौरवं जनयति.
एतादृशानां विवेकिना हिमतां धैर्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति. अस्तु, इत्युक्ते सत्यजित् रोल् मोडल् अस्ति.
सः एतादृशबालकः, तत्र कीदृशबालकाः अथवा बालः इदानीं प्रथमविभक्ति कीदृशा बालः कीदृशाः भवनीयं भवनीयाः
बालाः कीदृशा भवनीयाः बालाः विवेकिना
विवेकिनः
विवेकिनः धीमन्तः इत्युक्ते धीमतः
न इदानीं प्रथमविभक्ति एव अतः धीमन्तः
धीमन्तः इत्युक्ते धीमन्तः अपि
विवेकिनः धीमन्तः अपि
विवेकिनः धीमन्तः अपि च धैर्यवन्तः
बालाः
भवेत् न भवेत् बहुवचनरूपं किं
कस्य भगिनि
भवेत् तु न भवेत् तु एकवचनं
भवेयुः
क्षम्यतां इत्युक्ते विवेकिनः धीमन्तः धैर्यवन्तः भवेयुः
यतोहि तेषां द्वारा एव
यतोहि तेषां द्वारा एव देशस्य गौरवम् अपि वर्धते
अपि सर्वत्र सर्वत्र प्रसृतं भवति नाम तत्र सर्वे तत्र लोके तत्र कुत्रापि भवतु जनाः लोके किन्तु ते सर्वे जानन्ति अस्तु तत्र एषः तत्र देशस्य गौरवं तत्र गौरव तत्र भारतदेशस्य यशं ते सर्वे यशः ते सर्वे जानन्ति यत्र कुत्रापि भवन्तु ते सर्वे किन्तु
सर्वे दिशाः तु समीचीनं नाम महोदय
सर्वाः तत्र दिश् इति अस्ति तत्र दिक् दिशौ दिक् दिशौ बहुवचने किम् अस्ति दिशः
सर्वे दिशः
सर्वाः दिशः अथवा सर्वासु दिक्षु
प्रसारितः
अथवा प्रसृतम् अथवा प्रसृतं
प्रसृतं
भविष्यति प्रसृतं भविष्यति समीचीनं भगिनि इदानीम् अन्तिमवाक्यम्
अन्तिम तु प्रवृत्तां घटना सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः इत्युक्ते सत्यजित् स्वयमेव
यत् अभवत् तत् इदानीं विवृणोति
तस्य या अभवत् तस्य कृते या अभवत् न
या घटना अभवत्
सः एव तत् विषये क्षम्यतां तस्याः विषये अधुना वदिष्यति
वदिष्यति समीचीनं भगिनि हा बहु धन्यवादः समीचीनं अस्तु अस्तु अग्रे शोभा भगिनी इदानीं तत्र नूतनपरिच्छेदः
आम् महोदय सत्यजित् उक्तवान् सर्वेषां विदुषां चरणकमलयोः मम नमस्काराः तत्र सर्वेषां विदुषाम् इति षष्ठी विभक्ति चरणकमलयोः इति अपि
तत्र मम दोषः आसीत् भगिनि अहं पृष्टवान् तत्र उत्तरं यत् प्राप्तम् अस्ति तदस्ति तत्र चरणकमलयोः अस्ति चेत् तत्र प्रायशः सप्तमी एव हा इति अहं षष्ठी इति चिन्तितवान् किन्तु दोषः
अहमपि
अतः तत्र सप्तमी एव समीचीनं तत्र मम नमस्काराः इति तत्र न उक्तं किन्तु तत्र प्रायशः किं वक्तुम् इच्छन्ति अत्र इत्युक्ते तत्र मम नमस्काराः तत्र नमस्कारान् समर्पयामि इति
चरणे समर्पयामि किन्तु
समर्पयामि इति अर्थे अस्ति अतः तत्र सप्तमी एव समीचीनम् इति
किन्तु महोदय अस्तु पादस्य नमस्कारः इति अपि भवितुम् अर्हति किन्तु समीचीनः नास्ति इति
इति भगिनि अहं चिन्तितवान् तत्र
पादस्य पूजा तत्र
पादपूजा तत् सर्वं भवति किन्तु तत्र नमस्कारः इति तत्र अहं षष्ठी इति एव चिन्तितवान् किन्तु तत्र उत्तरं मया प्राप्तं अस्ति तत्र सप्तमी इति एव सम्यक् चिन्तनं
अस्तु महोदय तत्र सर्वेषां विदुषां षष्ठी किन्तु चरणकमलयोः इति सप्तमी द्विवचने मम नमस्काराः
इति
तदनन्तरं
इदानीं तत्र एतद् वयं पूर्व गतवर्गे न परिशीलितवन्तः अतः अत्र तत्र किं वाक्यं वाक्यं दृष्ट्वा पङ्क्तिशः पश्यामः भगिनि मधु महोदय नमस्कारः महोदय नमस्कारः सङ्ख्या
25
तदनन्तरं विवरणं कर्तुं सिद्धः अभवत् किम् अभवत् इति तस्मिन् दिने विरामः आसीत् तत्र तस्मिन् दिने यस्मिन् दिने सः एतत् सर्वं कृतवान् यस्य कृते तस्य सम्माननं भवन्ति अस्ति तस्मिन् दिने विरामः आसीत् तत्र विरामः नाम तत्र शाला अस्ति
तत्र तस्मिन्
विरामः किमपि कार्येण विरामः किन्तु तस्य विषये तु शालायाः
गन्तव्यं तत्र सः पाठशालां गन्तव्यः इति नासीत्
नासीत् अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम् तत्र क्रीडितुम् इति तु अस्ति अहं क्रीडितुं गच्छन् आसम् इति किन्तु क्रीडितुं नन्तरं सुहृदाम् इति तत्र द्वितीयविभक्ति भवति किल महोदय
न न भगिनि इदानीं तत्र पश्यामः तत्र अहं गच्छन् आसम् इति स्वीकुर्मः अहं गच्छन् आसम् गच्छन् इति तत्र शतरन्तरूपम् अहम् इति तत्र सत्यजित् वदति इति कृत्वा पुल्लिङ्गे अस्ति खलु
पुल्लिङ्गे अस्ति गच्छन् आसम्
इदानीं तत्र स्वगृहतः गच्छन् आसम् इति अस्ति तत्र स्वगृहतः इति विभक्ति का तत्र
स्वगृहतः इति तत्र पञ्चमी
पञ्चमी एव तत्र तत्र किं गृहं तत्रैव तिष्ठति सः अन्यत्र गच्छति अतः तत्र
स्वस्य गृहात्
गृहात् सः गच्छन् आसम् सः पञ्चमी समीचीनम् इदानीम् अस्ति किं कर्तुं
क्रीडितुं
इति एकम् अहं क्रीडितुम् इति एकम् अपि
अपि च सुहृदां दर्शनाय
हा तत्र दर्शनाय इति विभक्ति
दर्शनाय चतुर्थी अस्ति अतः
अतः तत्र किं कर्तुम् इति अथवा तत्र चतुर्थी किं कर्तुम् अथवा किमर्थम् इति प्रश्नस्य उत्तरं खलु
किं कर्तुम् इत्युक्ते क्रीडितुम् अपि च सुहृदां दर्शनाय
हा सः स्वगृहतः
सुहृदामो षष्टि भवति
षष्टि वचनं
वचनं बहुवचने
एकवचने सुहृदः किन्तु
बहुवचने तत्र मित्राणाम् इति अर्थे
मित्राणां
दर्शनाय सुहृदां दर्शनाय गच्छन् अस्ति
समीचीनं भगिनि
अत्र अपि च सरितः तीरेण गच्छतः मम मनसि किञ्चित् कालं सरिति तरामि
कञ्चित् कालम् अत्र
सरितः तीरेण तत्र सरित् इति
त्रिलिङ्गे इदानीं तत्र
तरामि
कर्तृपदम् अहम् अहम्
अहम् इति भवनीयम्
इदानीं अपि तत्र प्रायशः भगिनी तत्र अग्रिमवाक्यमपि पठतु तत्र उत्पन्नः इति पर्यन्तम्
अस्तु तदनन्तरं सुहृदां दर्शनाय गच्छामि इति विचारः उत्पन्नः
अतः तत्र विचारः उत्पन्नः विचारः उत्पन्नः कः विचारः उत्पन्नः इदानीं तत्र प्रथमवाक्यम् अपि द्वितीयवाक्यं तत्र कञ्चित् इति आरभ्य तत्र प्रथमवाक्यं पश्यामः
अस्तु तत्र सरितः इति षष्ठीविभक्ति सरितः
अनन्तरं पश्यामः प्रथमतया तत्र विचारः कः उत्पन्नः इति पश्यामः भगिनि
अस्तु अस्तु कञ्चित् कालं सरिति तरामि तत्र सरिति इति सप्तमी विभक्ति महोदय
समीचीनं
तत्र कालमिति द्वितीया विभक्तौ अस्ति इति कृत्वा कञ्चित् इति भवति
समीचीनं समीचीनं भगिनि
अनन्तरं सन्धिकार्येण तादृशः
चकारस्य अनुनासिक व्यञ्जनं तत्र आगच्छति अतः तत्र मकारस्य स्थाने ञ इति भवति
ञ इति चकारस्य अनुनासिक वर्णः
कालं सरिति तरामि इति प्रथम विचारः उत्पन्नः इदानीं द्वितीयविचारः
तदनन्तरं सुहृदां दर्शनाय गच्छामि इति विचारः उत्पन्नः तत्तु प्रथमं
वदतु भगिनि
प्रथममेव उत्पन्नः आसीत् सुहृदां दर्शनाय गच्छामि इति किन्तु यतोहि सः सरितः तीरेण गच्छन् अस्ति अतः
इदानीं तत्र इदानीं तत्र इदानीं तद् भागं
सरितं दृष्ट्वा
इदानीं तत्र सरितः तीरेण गच्छतः मम मनसि इति तद् स्वीकुर्मः
तीरेण गच्छतः इति तत्र शत्रन्त प्रयोगः
समीचीनं भगिनि इदानीं
गच्छतः मम मनसि
तत्र मनसि इति सप्तमी
मनः सप्तमी मम इति षष्टि मनसि इति सप्तमी
अपि गच्छतः इति किम् अस्ति विशेषणं
कस्य विशेषणम् इत्युक्ते तीरेण सरितः तीरेण गच्छतः
न तत्र अस्तु तत्र तीरेण इति अस्ति तीरेण गच्छतः मम मनसि इति तत्र किमस्ति भगिनि तत्र सरित् अस्ति सरितः तीरं तत्र तीरः वा तीरं वा न जानामि किन्तु तत्र तीरेण तत्र मार्गः अस्ति तत्र खलु सरितस्य
सरितम् इत्युक्ते तस्य बौण्ड्रि इति
सत्यम् अतः तत्र सरितः समीपः एव एषः अस्ति खलु हा तत्र सरितः पार्श्वे एव एषः गच्छन् अस्ति खलु सः अतः सः किं वदति अहं गच्छन् अस्मि खलु एतदेव सः वदति खलु अहं गच्छन् अस्मि अहं कुत्र गच्छन् अस्मि अहं सरितः तीरेण गच्छन् अस्मि इति वदति खलु सः सः चिन्तितुं शक्नोति खलु अहं सरितः तीरेण गच्छन् अस्मि इदानीं तत्र अहं गच्छन् अस्मि इति स्वीकुर्मः तत्र गच्छन् इति किम् अस्ति
गच्छन् पुंलिङ्गे एकवचने शत्रन्त
शत्रन्त अपि विशेषणम् अस्ति खलु अहं पदस्य गच्छन् अस्मि अहं गच्छन् अस्मि इदानीं मम मनसि इति स्वीकुर्मः मम मनसि किमपि विचारः आगच्छति मम मनसि इदानीं किन्तु अहं कीदृशः अहं गच्छन् अस्मि तादृश अहम् अस्मि इदानीं मम मनसि कश्चन विचारः भवति अतः मम इति अस्ति चेत् तस्मात् पूर्वं किं भवति विशेषणस्य अपि षष्ठी भवति खलु अतः गच्छतः मम मनसि गच्छतः मम मनसि कुत्र गच्छतः इत्युक्ते तत्र सरितः तीरेण तेन मार्गेण गच्छतः कीदृशः अहं गच्छन् अहं मम मनसि अतः गच्छतः मम मनसि
गच्छतः मम मनसि विचारः
उत्पन्नः
अभवत्
हा उत्पन्नः पुनः विशेषणं तत्र विचारः इति पदस्य इदानीं तत्र सरितः इति षष्ठी अस्ति गच्छतः अपि षष्ठी अस्ति किन्तु गच्छतः मम इति पदस्य विशेषणं समीचीनं खलु कीदृशः तत्र गच्छन् अहम् इति पदस्य षष्ठी अग्रे भगिनि
अनन्तरं कञ्चित् कालं सरिति तरामि तत्र कञ्चित् इति तत्र कं योगः चित् अस्ति किन्तु अव्ययम् इति अपि
चित् इति अव्ययं
कञ्चित्
अव्ययं नास्ति कः इति पदस्य कः योगः चित् इति अतः कम् इति
कञ्चित् कञ्चित् कालं सरिति तरामि तत्र तरामि इति क्रियापदम् अहं तरामि इति अतः अहम् इति कर्तृपदं भवति कुत्र तरामि इत्युक्ते सरिति तरामि सप्तमी विभक्तौ तत्र कञ्चित् कालम् इति अस्ति कियत् कालम् इति वक्तुं शक्नुमः वा
कियत्कालम् अथवा तरामि इति तत्र कालम् इति विषयः अस्ति चेत् तत्र हा किञ्चित् कालं तत्र कञ्चित् कालमेव हा सत्यं भगिनि तत्र हा तत्र कियत् कालं कञ्चित् कालं
तत्र सप्तमी अपि भवितुम् अर्हति क्षम्यतां महोदय सप्तमी अपि भवितुम् अर्हति तत्र कञ्चित् काले सरति तरामि अपि भवितुं
न कञ्चित् काले इत्युक्ते भगिनि तत्र अहं न जानामि कदा अहं तरामि इति किन्तु तत्र केवलं तत्र भेन्निति इति नास्ति तत्र कालस्य दीर्घता इति विषयः खलु
आं महोदय
हा अतः तत्र सप्तमीति न भवति
ओ
खलु तत्र
किमर्थं महोदय
तत्र एकघण्टा यावत् अहं पठामि इति भवति किन्तु एकवादने पठामि इति भिन्नः अस्ति खलु
आं महोदय
हा एकवादने पठामि एक्साक्ट् टैम् इन्स्टेण्ट् अस्ति किन्तु कियत् कालम् अहं पठामि इति कियत् कालः तत्र पठनक्रिया भवति इत्युक्ते तत्र कञ्चित् कालम् अहं पठामि इति तत्र अवधिः अस्ति खलु भगिनि तत्र समयस्य अवधिः
यदि महोदय तत्र काले इति उपयोगं कुर्मः चेत् तत्र कञ्चित् न भवति, तत्र तस्यापि सप्तमी भवनीयम्।
सत्यं सत्यं, किन्तु यदि तत्र कस्मिंश्चित् काले अहं सरिति तरामि इति वाक्यं स्वीकुर्मः, अर्थः कः?
महोदय मम पार्श्वे एक करपत्रमस्ति, तत् वदति व्यवधानरहितकालवाचि एव मार्गवाचि शब्दे द्वितीया विभक्ति एव भवति इति। लैक् छात्रः द्वादशवर्षाणि अपठत्, छात्रः मासं पुस्तकम् अपठत्, तत्र कालवाचि शब्द अस्ति चेत् द्वितीया विभक्ति भवति इति उक्तम्।
तत्र केवलं समयः इत्युक्ते कस्मिन् समये किमपि अभवत् इति तत्र सप्तमी, किन्तु अत्र कियत् कालः इति, केवलं तत्र एकवादने इति विषयः नास्ति खलु। अतः तत्र कञ्चित् कालं सः। धन्यवादः भगिनी, समीचीनं। हा, अतः तत्र गीताञ्जलि भगिनी इदानीं समीचीनं वा?
आं महोदय, अधुना अवगतम्।
हा, तत्र लेन्त् आफ् टैम् इति विषयः, न तु तत्र कस्मिन् समये इति खलु। अस्तु
भगिनि,
सत्यम् अवधिः। हा सत्यं भगिनि, हा तत्र, हा अतः तत्र द्वितीया विभक्ति। अस्तु समीचीनम्। अस्तु अग्रे भगिनि।
तदनन्तरं सुहृदां दर्शनाय गच्छामि इति विचारः उत्पन्नः। तत्र दृष्टवन्तः सुहृदाम् इति षष्ठी बहुवचने भवति, दर्शनाय इति चतुर्थी विभक्ति भवति। गच्छामि, अस्तु, तत् इति विचारः उत्पन्नः। तत्र उत्पन्नः इति पुंलिङ्गे अस्ति इति कृत्वा
विचारः इति कीदृश
न उत्पन्न उत्पन्नः
सत्यं भगिनि।
अस्तु, तत्र पदं कथं भवति महोदय? तत्र उत्पन्नः उत् उपसर्गम् उत्पत्ति इति अस्ति, उत्पन्नः सा प्रत्ययः घैव अस्ति इति
न जानामि भगिनि, द्रष्टव्यः अस्ति।
आम् महोदय, अपि च तरणार्थम् उद्युक्तः अहं किञ्चित् अग्रे कस्यचित् तरोः अधः कानिचन वस्त्राणि दृष्टवान्।
इदानीं तत्र
दृष्टवान्
किं दृष्टवान्?
तत्र कानिचन वस्त्राणि दृष्टवान्।
वस्त्राणि तत्र चन अथवा चित् समान अव्ययम् अपि समान अर्थः, चन् वा चित् वा तत्र कञ्चित् अथवा कञ्चन समानार्थः, अथवा कानिचन अथवा कानिचित् अपि समानः।
कञ्चित् एकवचने अस्ति वा महोदय?
तत्र कः इति पुल्लिङ्गे अस्ति खलु, तत्र कः,
तत्र वस्त्राणि इति बहुवचने अस्ति,
अत्र तु कानिचन इति, कानि योगचन, अतः कानिचन अथवा कानिचित् इति,
कानिचित्, ओ कानिचित् उक्तवान्,
कानिचित् तत्र चित् अथवा चन, तत्र विकल्पद्वयमस्ति, तत्र चित् वा चन वा, किन्तु कानि योगः चन, कानिचन, कानिचन वस्त्राणि दृष्टवान्। कः दृष्टवान्?
सत्यजित् दृष्टवान्।
अहम् अत्र तत्र अहं दृष्टवान्। कुत्र दृष्टवान् कानिचन वस्त्राणि?
तत्र तरोः अधः।
तरोः अधः अधः तरोः इति विभक्ति का तत्र?
तत्र षष्टिविभक्ति,
षष्टिविभक्ति, तरुः अथवा वृक्षः, वृक्षस्य अधः,
अधः
अधः क कानिचन वस्त्राणि दृष्टवान्। इदानीं तत्र तरुः तरुः अस्ति, तत्र तरुः अस्ति चेत् तत्र एष एषः तरुः, एतं तरुं जानीमः वा वयं? न, तत्र कश्चित् तरुः तत्र अस्ति खलु, तत्र कश्चित् कश्चित् तरुः तत्र अस्ति, अतः तरोः अस्ति चेत् तत्र किं भवति? कस्यचित् तरोः इति रूपं भवति खलु। तत्र कश्चित् तरुः अस्ति, कः योगः चित् कश्चित्,
कश्चित् तरुः अस्ति तस्य एव कस्यचित् तरोः किमर् तत्र षष्टि भवति, अतः कस्यचित् तरोः अधः
अधः इति रूपं भवति अतः अपि तस्य तस्मात् पूर्वं
तस्मात् पूर्वम् अहं किञ्चित् अग्रे इति किञ्चित् अग्रे
किञ्चित् अग्रे अहम् एतत् सर्वं दृष्टवान् किञ्चित् तरोः कस्यचित् कश्चन तत्र कश्चित् तरुः आसीत्, अहं तस्य तरोः अधः कानिचन वस्त्राणि दृष्टवान्। इदानीं तत्र कीदृश अहम् अस्मि? अहम् उद्युक्तः
अस्मि।
किं कर्तुम् उत्साहितः अस्मि? उत्साहितः अस्मि।
तत्र उत् उपसर्ग अस्ति पुनः
युक्तः युक्तः
युक्तः
युक्तः
उद्युक्तः
उद्युक्तः
अत्र
तु त त प्रत्ययः एव इति मन्ये,
त प्रत्ययः एव युज् धातुः तत्र तरणार्थम् इति
तरणार्थं
तरणार्थम् इत्युक्ते तरणाय अपि भवितुम् अर्हति
सत्यं तरणाय उद्युक्तः तत् कर्तुं तत्र तरणं कर्तुं
कर्तुम्
अहम् उद्युक्तः आसम्
उद्युक्तः उद्युक्तः भवन् उद्युक्तः उद्युक्तः सन् अहं किञ्चित् अग्रे कस्यचित् तरोः अधः कानिचन वस्त्राणि दृष्टवान्
इदानीम् अग्रे
अहं परितः अवलोकितवान् तत्र परितः इत्युक्ते सरौण्डिङ्ग् इति अर्थे भवति
सर्वासु दिक्षु अहं
सर्वासु दिक्षु अवलोकनं कृतवान् तत्र अवलोकितवान् इति तव तु
तत्र दृष्टवान्। इदानीम् अग्रे किं भवति? अस्तु अग्रे तत्र उषा भगिनी अग्रे वदति वा?
आं महोदय, परितः अवलोकितवान् परन्तु न कोऽपि तत्र आसीत्। पठामि वा अथवा
एकमेकं वाक्यं वाक्यं पठित्वा वदतु।
परन्तु तत्र सः कोऽपि तत्र न आसीत्,
तत्र कोऽपि पुरुषः वा महिला तत्र नासीत्
न आसीत्,
किन्तु तत्र वस्त्राणि सन्ति।
आं महोदय, वस्त्राणि दृष्टवान् सः पुनरपि सरिति दृष्टिं प्रसारितवान् अहं किञ्चित् अग्रे सरितः प्रवाहे मज्जन्तौ बालकौ दृष्टवान् पुनरपि पुनः सरिति सप्तमी विभक्ति अस्ति एकवचने दृष्टिं कर्मपदमस्ति तत्र प्रसारितवान् इत्युक्ते अवलोकितवान् दृष्टवान्
दृष्टिं प्रसारितवान् इत्युक्ते अवलोकितवान् किं दृष्टवान् अथवा किम् अवलोकितवान् सः सरितम् अवलोकितवान् अथवा सरिति
अवलोकि
न सरिति
दृष्टिम् अवलोकितवान्
दृष्टिं प्रसारितवान्
अवलोकितवान् अपि
दृष्टिम् अपि अवलोकितवान् न भवति भगिनि
अस्तु महोदय
दृष्टि
महोदय प्रसारितवान् अपि च अवलोकितवान् समानं
न अवलोकितवान् प्रसारितवान् समानं नास्ति भगिनि तत्र न प्रसारितवान् इत्युक्ते पूर्वमपि आसीत् खलु तत्र प्रसार्यमाण इत्युक्ते स्प्रेड् इति भगिनि
दृष्ट्वा पश्यति
हा तत्र दृष्टिः प्रसारितवान् खलु अतः तत्र दृष्टिं दृष्टवान् अथवा अवलोकितवान् किन्तु किं दृष्टवान् इत्युक्ते सरितं दृष्टवान् सरित् अस्ति सरितं दृष्टवान् अथवा सर् इति दृष्टिं
प्रसारितवान्
कः प्रसारितवान्
सत्यजि
अतः अहम् अहं प्रसारितवान् तादृशः अहम् अहं कीदृशः अस्मि अहं प्रसारितवान् अस्मि खलु सत्यजितः कीदृशः सः प्रसारितवान् अस्ति हा किं तत्र किं प्रसारितवान् अस्ति सरिति दृष्टिं प्रसारितवान् अस्ति सः खलु अतः सः अग्रे किं करोति
अहं किञ्चित् अग्रे सरितः प्रवाहे मज्जन्तौ बालकौ दृष्टवान्
सः किञ्चित्
दृष्टवान्
दृष्टवान् अहं दृष्टवान्
अहं दृष्टवान्
इदानीं किं दृष्टवान्
किं दृष्टवान् मज्जन्तौ बालकौ दृष्टवान् मज्जन्तौ कर्मपदं द्वितीयसक्ति बालकौ द्विवचनं मज्जन्तौ अपि च बालकौ द्विवचनं विशेषणविशेष्यम् अस्ति तत्र
समीचीनम् इदानीं तत्र
प्रवाहे सप्तमीभक्ति अस्ति
हा समीचीनं
कस्य सरितः प्रवाहः
कस्य इति कस्य इति न कस्याः इति प्रायशः
कस्याः प्रवाहे सरितः प्रवाहे
प्रवाहे स निबन्धन्तो
कं के के दृष्टवान् न महोदय
न न कौ कौ दृष्टवान्
कं कौ
कं एकवचने कं कं द्विवचने कौ
कं कौ
कान्
कान् कौ दृष्टवान् मज्जन्तौ बालकौ दृष्टवान्
हा इदानीं तत्र मज्जन्तौ बालकौ इति तत्र प्रथमविभक्ति एकवचने किम् अस्ति
मज्जन्तौ मज्जन्
बालकः
मज्जत् अस्ति वा मज्जन्
मज्जन् मज्जन् मज्जन् बालकः
मज्जन् बालकः दृष्टवान्
मज्जन् बालकः इति एकवचने किन्तु तत्र यदि दृष्टवान् इति भवति चेत् तत्र मज्जन्तं बालकं दृष्टवान् एकवचने
एक प्रश्नः महोदय मज्जन् प्रातिपदिकं किम् अस्ति महोदय
प्रातिपदिकं मज्जत् अस्ति किन्तु प्रथमविभक्तिरूपम् अस्ति मज्जन् इति
स्त्रीलिङ्गे अस्ति वा महोदय
स्त्रीलिङ्गे अस्ति मज्जन्ती इति मज्जति इति वा अथवा मज्जन्ती वा तत्र
मज्जत् पुंलिङ्ग अस्ति वा स्त्रीलिङ्गे वा अथवा नपुंसकलिङ्गे
वा न न मज्जत् इति प्रातिपदिकम् अस्ति मज्जन् इति पुल्लिङ्गरूपम् अस्ति
बालकौ दृष्टवान् मज्जन्तं बालकं
दृष्टवान्
दृष्टवान्
एकवचने एकवचने इदानीम् अग्रे
प्रवाहे इत्युक्ते फोर्स्फुलि
तत्र सत्यं भगिनि तत्र जलं वेगेन वेगेन
वेगेन गच्छन्
गच्छत् अस्ति गच्छत् अस्ति
गच्छत् अस्ति न मन्दं मन्दं परन्तु
गच्छत् इति रूपं किं पुनः शत्रन्तरूपं किन्तु नपुंसकलिङ्गे गच्छन् इति पुल्लिङ्गे गच्छन्ती इति स्त्रीलिङ्गे गच्छत् इति
नपुंसकलिङ्गे
जलं सरिति जलं वेगेन गच्छत् अस्ति
तदानीमेव मज्जन्
तस्मिन् समीचीनं भगिनि अतः तत्र प्रवाहे मज्जन्तौ तस्मिन् प्रवाहे मज्जन्तौ
बालकौ दृष्टवान्
अहं दृष्टवान्
निमेषं यावत् स्तब्धः अभवम् निमेषं तत् क्षणे सः अचलः अभवत्
पुनः तत्र कालस्य विषयः अस्ति अतः तत्र निमेषं यावत् इति कर्मपदं न द्वितीयविभक्ति तत्र कर्मपदम् इति न वक्तव्यं यतोहि तत्र उपपदविभक्तिः अस्ति खलु क्रियापदस्य कोऽपि सम्बन्धः नास्ति अत्र अत्र केवलं तादृश तत्र यावत् इति अस्ति, तत्र निमेषं यावत् इति,
यावत् अस्य घटना दृष्टवान् तावत् सः अचलः.
न न न, निमेषं यावत् इत्युक्ते एकनिमेष तत्र निमेषः अस्ति, निमेषस्य अवधिः सः स्तब्धः, किमपि तत्र किमपि न कृतवान् शक्यः, शक्तवान्
किमपि कर्तुं न शक्नोमि इति चिन्तित्वा सः अचलः
अचलः आसीत्.
अभवं लङ्लकार उत्तमपुरुषे,
हा अभवत् इति अत्र अभवम्.
अभवम् ततः सरितः गभीरतां विपदः कठिन, सरितः गभीरतां विपदः कठिनताम् आत्मनः दौर्बल्यं च विस्मृत्य अहं सरिति कूर्दितवान्. ततः अनन्तरं
न न भगिनि, इदानीं तत्र कूर्दितवान् इति ततः पश्यामः,
कूर्दितवान्
अहं सरिति
कूर्दितवान्
तत् अवगच्छति खलु तत्र, सरिति कूर्दितवान् इत्युक्ते तत्र साक्षात् जले सः नद्यां कूर्दितवान्
सः,
इदानीं सः नद्यां
किमपि न चिन्तित्वा सः
इदानीं तत्र कूर्दितवान् इदानीं विस्मृत्य लेबन्तं विस्मृत्य, किं विस्मृत्य
सरितः गभीरतां,
सरितः गभीरतां इदानीं तत्र गभीरता इत्युक्ते
गभीरतां जलस्य प्रवाहम् अस्ति वा
गभीरता, न न तत्र सरितः सरित अस्ति, गभीरता इत्युक्ते तत्र जलम् अधो कियत् अधोभागे अस्ति इति जलं, हा तत्र गभीरता, गभीरता इति तस्य भावः,
गभीरता इत्युक्ते
सत्यं भगिनि, गभीरतां किं विस्मृत्य इति अस्ति खलु, अतः कर्मपदं किं विस्मृत्य गभीरता विस्मृत्य, अपि
विपदः कठिनतां,
कस्य कठिनतां
विपदः,
विपदः एषः विपद् अस्ति खलु, बालकौ निमज्जन्तौ स्तः इति कृत्वा तत्र विपद् अस्ति, किन्तु विपदः कठिनतां विस्मृत्य
आत्मनः दौर्बल्यम्, आत्मनः इत्युक्ते
स्वस्य स्वस्य दौर्बल्यम्, अहम् एतत् कर्तुं शक्नोमि वा न वा
इति
मम दौर्बल्यम् अथवा दुर्बलता अति भावः, सौन्दर्यम् अथवा सुन्दरता, सौन्दर्यम् इव दौर्बल्यं, सुन्दरता इव तत्र दुर्बलता,
दुर्बलता
तत्र
सुन्दरस्य भावं सौन्दर्यम्,
अत्र दौर्बल्यम् इति भावः, अतः तत्र दौर्बल्यमपि विस्मृत्य स्वस्य दौर्बल्यम् एतत् कर्तुं शक्तिः मम पार्श्वे अस्ति
न वा
इति तस्मिन् विषये किमपि न चिन्तित्वा
चिन्तनं न कृत्वा
सः
सरिचि कूर्दितवान् सप्तमी सरिचि एकवचनं
किमपि, अतः तत् सः किं किं विस्मृत्य कूर्दितवान्,
सरितः गभीरतां विपदः कठिनताम् आत्मनः दौर्बल्यं
च विस्मृत्य
सः सरिति कूर्दितवान्.
तत्र वयं जानीमः च अस्ति चेत् समूहः अस्ति, समूहे तत्र एकः नियमः अस्ति, चकारः अस्ति चेत् समूहः अस्ति, किन्तु समूहे अनेकाः सदस्याः सन्ति, किन्तु तेषाम् एकः तत्र सामान्यं भवति, कीदृशसामान्यः वचनसामान्यं भवति वा समूहे,
आं महोदय
न न चकाचो इति अस्ति चेत् समूहे वचनसामान्यं भवति वा न अत्र न साधारणतया न भवति तत्र वयं वक्तुं शक्नुमः तत्र एकः किम् एकः वृक्षः अनेकानि पुस्तकानि सामान्यं नास्ति लिङ्गसामान्यम् अस्ति वा न किन्तु किं किमस्ति सामान्यं च इति अस्ति चेत् समूहे समूहे ये सदस्याः सन्ति तेषां किमपि सामान्यं भवति
सरितः विपदः आत्मनः इति अस्ति महोदय तत्र
अत्र 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 किमपि अस्ति तत्र सरितः गभीरताम् इति सदस्यः खलु
आं महोदय
गभीरतां कठिनतां दौर्बल्यम् इति तत्र सामान्यं किम् अस्ति
गभीरतां कठिनतां दौर्बल्यम्
इति तत्र सामान्यं किम् अस्ति चकारः अस्ति चेत् तत्र समूहस्य किमपि सामान्यम् अपेक्षितमस्ति तत् किम् चाका इत्युक्ते
विभक्ति वा महोदय
विभक्तिः
षष्टिविभक्त्या
न षष्टिविभक्ति नास्ति
परन्तु विभक्ति समानमस्ति
अत्र विभक्ति का अत्र द्वितीया भगिनी
सरितः विपदः
सरितः इति सदस्यः नास्ति सरितः इति सदस्यः
गभीरतां
दौर्बल्यम् इति समीचीनं भगिनि
द्वितीयविभक्ति
किं विस्मृत्य अतः एतत् सर्वं विस्मृत्य अतः च विस्मृत्य इति अस्ति अतः तस्मात् पूर्वं गभीरतां कठिनतां दौर्बल्यम् इति द्वितीयविभक्ति सामान्यम्
इत्युक्ते कथं वदनीयं महोदय यदि च समूहे अस्ति चेत् वचन
इति न तत्र सदस्यानां समानविभक्तिः भवेत्
सदस्यानां समानविभक्तिः भवेत्
अत्र द्वितीयविभक्ति सर्वत्र किन्तु तत्र केवलं तत्र सरितः गभीरताम् इति तत्र किम् अस्ति कस्य अथवा कस्याः गभीरताम् अस्तु सरितः गभीरतां किन्तु अन्यदपि तत्र स्थापितुं शक्नुमः षष्टि अस्ति किन्तु षष्टि इति चकारस्य विषयः नास्ति
कर्मपदम् एव तत्र
विस्मृत्य इति तस्य कर्मपदम् एतानि सर्वाणि कर्मपदानि सन्ति इति कृत्वा तत्र द्वितीयविभक्ति समीचीनं
सर्वदा द्वितीयविभक्त्याम् अस्ति अथवा
किमपि भवितुम् अर्हति तत्र अहं रामाय अहं रामाय कृष्णाय दामोदराय नमस्कारं समर्पयामि
चतुर्थी विभक्ति
अतः तत्र किमपि भवितुम् अर्हति किन्तु चकारात् प्राक् पूर्वं समूहः अस्ति चेत् तत्र समूहे सर्वे सदस्याः समानविभक्तिरूपं तत्र समानविभक्त्यन्तं विभक्त्यन्तः अस्तु
अस्तु महोदय
अग्रे
शीघ्रं तीर्त्वा एकं बालकं शिरसि गृहीतवान् शीघ्रं झटिति त्वान्तपदम् एकं बालकं
तत्र तरति इति
तीर्त्वा
तरामि
अपि न महोदय
सत्यं भगिनि तत् अस्ति
तीर्त्वा एकं बालकम्
एकं बालकं
विशेषणविशेषम् अस्ति तत्र शिरसि गृहीतवान् शिरसि सकारान्तशब्दस्य शिरसि सप्तमी एकवचने गृहीतवान्
किमर्थ सप्तमी अस्ति अत्र
भाग अस्ति अवयव
अवयवः अस्ति तत्र देहस्य
अवयवस्य
विषये वयं यदि वदामः
तत्र
गृह्णामि इत्युक्ते तत्र कुत्र गृह्णामि इति, अतः तत्र शिरसि
गृहीतवान्
इति अस्ति. समीचीनं भगिनि. अस्तु, इदानीम् अग्रिमवाक्यमपि तत्र पठतु.
तथा अपरं बालकम् आत्मनः स्कन्दे कृत्वा समग्रां शक्तिं संहृत्य अहं कथमपि सरितः तीरम् आगतवान्. अस्तु, अनन्तरं तथा अपरम् अन्यबालकम्
इदानीं तत्र एकं बालकं शिरसि गृहीतवान् अस्ति,
गृहीतवान् तस्य पार्श्वे अस्ति एकः बालकः. अनन्तरं तथा अपरं बालकम् अन्यः बालकम् आत्मनः इत्युक्ते तत्र
स्वस्य
मम
स्कन्दे
अवयव अस्ति षष्टि सप्तमी विभक्ति एकवचने स्कन्दे कृत्वा
तत्र स्कन्दे स्थापयित्वा
कृत्वा इत्युक्ते स्थापयित्वा
अत्र स्कन्दे स्थापयित्वा स्थापयित्वा इति कृत्वा इति अनेकानि अनेकाः अर्थाः सन्ति. अत्र स्थापयित्वा
समग्रां शक्तिं
समग्राम् इति अस्ति
समग्रां शक्तिं श्रीलिङ्गे अस्ति महोदय तत्र समग्रां शक्तिं
किमर्थं श्रीलिङ्गे अस्ति शक्तिः स्त्रीलिङ्गे अस्ति समग्रा शक्तिः
शक्तिं संहृत्य
संहृत्य
लेप् प्रत्यय शक्ति फुल्लि यूस् सङ्ग्रहणं
संहृत्य
अहं कथमपि सरितः षष्टिमध्ये तीरम् आगतवान्
तत्र सरितः तीरम् अहं
आगतवान्
कथमपि तत्र न जानामि कथम् अहम् आगतवान् कथमपि अहम् आगतवान् तत्र मम शक्तिः समग्रा शक्तिः या आसीत् तत्सर्वं संहृत्य तत् सर्वं सा शक्ति सर्वं गता किन्तु कथमपि अहं किं सरितः तीरम्
आगतवान् तस्य शक्तिं पूर्णतया उपयुज्य
शक्तेः उपयोगं पूर्णतया
उपयोगं कृत्वा
सः
तीरम्
आगतवान्. समीचीनं भगिनि. अस्तु, इदानीं तत्र अस्तु लक्ष्मी भगिनी उक्तवती सा गच्छति इति. अस्तु 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 तर्हि तत्र अग्रे
अहं पठामि वा महोदय. अहं पठामि.
पठितुं शक्नोति वा भगिनि? अस्तु भगिनि. अस्तु,
यावत् तीरं प्राप्नवं तावता मम बोधः विनष्टः आसीत्.
तत्र यावत्
तीरं प्राप्नवं प्राप्नवं किं किम् अस्ति किं प्रत्यय किमस्ति तत्र
तत्र उपसर्ग अस्ति वा उपसर्ग किं प्रयोगः आप्नवम् आप्नवम् तत्र अस्ति तु लङ्लकारः आप्नवम् आप्नोति इति जानाति खलु प्राप्नोति इदानीं तत्र प्राप्नोति इति लट् लकारस्य लङ्लकाररूपं किम् अस्ति
लङ्लकार प्राप्नवं किमस्ति प्राप्नोत् न
प्राप्नोत् आप्नोत् इति आप्नोत् इति इदानीं तत्र तत्तु प्रथमपुरुषे
इदानीं किं उत्तमपुरुषे उत्तमपुरुषे प्रथम एकवचनरूपम्
लङ्लकारः प्राप्नवम्
यावत् तीरं प्राप्नवं तावता मम बोधः विनष्टः आसीत् इत्युक्ते मम बोधः विनष्टः आसीत् इत्युक्ते मम अहं न चिन्तयितुं शक्नोमि वा किं किं
वदतु तस्य
मम बोधः विनष्टः आसीत्
तत्र तस्य चेतना अथवा तत्र
लैक् अन्कान्शियस्.
हा सत्यं भगिनि, तदेव अस्ति, तदेव अस्ति तत्र. हा तत्र अचेतः, सः अचेतः
जातः,
अचेतः जातः, सः अचेतः
आसीत्
अथवा अहम् अचेतः आसम्. अचेतः आसम्
यावत् तीरं प्राप्नवं तावत्
सः तीरं प्राप्तवान्.
महोदय तावता
विनष्टः आसीत् इत्युक्ते तत्र तावता यदा अहं तत्र अहं तीरस्य समीपम् आगच्छामि तत्र किं भवति, तत्र बोधः न्यूनं न्यूनः 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 इति भूत्वा सः तीरम् आगतवान्. इदानीं बोधः नास्ति
नास्ति,
अतः तत्र तीरं प्राप्तवान् तस्मिन्नेव समये किं भवति, सः अचेतः भवति.
मम प्रश्नः अस्ति महोदय, यावत् अस्ति चेत् तावत्
यावत् तावत् तादृश नास्ति, यतोहि तत्र यावत् तावत् तत्र तूल नास्ति खलु, यावत् तावत् अत्र तु यावत् सः यदा सः तत्र तीरं प्राप्तवान् तदा इति अर्थे.
जागरितः अहम् उच्चैः आकृष्य सर्वान् आहूतवान्.
तत्र अचेतः आसीत् खलु, इदानीं तत्र सः किञ्चित् किञ्चित् कालानन्तरं सः जागरितः अभवत्.
सः जागरितः तत्पश्चात् उच्चैः सर्वान् आहूतवान्. आकृष्य इत्युक्ते
आकर्षणं तत्र तत्र
आकृष्य इत्युक्ते जागरितः अहम् उच्चैः आकृष्य
तत्र किं सिंहः करोति खलु तत्र आक्रोशणं वा तत्र किम् अस्ति,
आक्रोश इति अस्ति, आक्रोश करोति इति आक्रोशणम् इति.
हा तादृश खलु तत्र तत्र सिंहः यत् करोति तादृश इति मन्ये.
आकृष्य सर्वान् आहूतवान्, सर्वान् आहूतवान्. ये विपदि पतिताः भवन्ति ते केऽपि वा भवन्तु रक्षणीयाः एव.
इदानीम् एकनिमिषं भगिनि, आकृष्य आकृष्य इति तत्र ल्यबन्तम् अस्ति
खलु, ल्यबन्तम् अस्ति महोदय.
अस्तु तत्र ल्यबन्तम् आकृष्य सर्वान् आहूतवान्. हा सर्वान् तत्र आगच्छन्तु आगच्छतु इति तत्र अहम् आहूतवान्. इदानीम् अग्रे ये
विपति पतिताः भवन्ति ते के अपि केऽपि वा भवन्तु रक्षणीयाः एव.
इदानीं तत्र एते यः सः इति वाक्यं
यः विपदि पतिताः भवन्ति,
ये विपदि पतिताः भवन्ति अथवा यः विपदि पतितः भवति,
यः विपदि पतितः भवति ते केऽपि वा भवन्तु
इत्युक्ते तत्र कोऽपि अस्ति सः विपदि अस्ति, इदानीं विपदि पतितः अस्ति. इदानीं तस्मिन् समये वयं तत्र गत्वा भवान् कः, किमर्थं भवान् विपदि पतितः, कति समयः अत्र अस्ति, भवतः नाम किम्, एतत् सर्वं वयं
पृच्छन्ति
पृच्छामः वा
पृच्छामि
पृच्छामः वा सः विपदि अस्ति तस्मिन् समये वयं न वयम् अस्माकं चिन्तनं किं सः कः इति न भवति, सः सः रक्षणीयः एव, ते रक्षणीयाः एव. सः कोऽपि भवतु, यदि वयं जानीमः अथवा न जानीमः ते के, किन्तु ते सर्वे रक्षणीयाः एव.
रक्षणीयाः
अतः तत्र विपदि पतिताः जनाः ये सन्ति ते सर्वे रक्षणीयाः एव, ये कोऽपि भवन्तु ते, ते ये कोऽपि भवन्तु, किन्तु ते कोऽपि भवन्तु, ते सर्वे रक्षणीयाः एव.
तेन रक्षणीयः,
ते रक्षणीयाः एव इत्युक्ते दे आल् डिसर्व् टु बि
सेव्ड् प्रोटेक्टेड् आर् सेव्ड्
सेव्ड् हा अग्रे
रक्षणीयः
तत्र अनियर् अनियर् इति वदामः करणीयं करणीयं कर्तव्यं
करणीयं कर्तव्यं रक्षणीयः ओके. तत्र आपदः काठिन्यम् आत्मनः हितं वा यदि चिन्तयामः तर्हि पश्चात् दुःखम् अनुभोक्तव्यं भवति इति मम विश्वासः. मम विश्वासः किम् अस्ति तत्र आपदः काठिन्यम् आपदः
आपद् प्रातिपदिकं किम् अस्ति तत्र आपदः काठिन्यं यदि चिन्तयामः एतत् कार्यं बहु कष्टकरम् अस्ति अहं कर्तुं शक्नोमि न वा इति तत्र अथवा तत्र बहु कष्टम् अस्ति इति अथवा इति चिन्तयामः
अथवा आत्मनः हितं स्वस्य हितमपि चिन्तयित्वा यदि चिन्तयामः तर्हि पश्चात् दुःखम् अनुभोक्तव्यं भवति.
हा यदि तादृशं कुर्मः अस्तु तत्र किं करोमि अहं रक्ष तत्र रक्षणार्थं गच्छामि न अहं न गच्छामि मम मनसि सन्देहः अस्ति अस्ति इति तत्र तादृशं भवति चेत् किं भवति अनन्तरं पश्चात्
दुःखम् अनुभोक्तव्यं भवति
इति
मम विश्वासः
अतः तत्र रक्षणीयः
चिन्तयामि अहं चिन्तयामि आपदः काठिन्यम् आत्मनः हितं यदि अहं चिन्तयामि तर्हि पश्चात् अहं दुःखम् अनुभवम्
अनुभवामि निश्चयेन अनुभवामि इति मम दृढविश्वासः अतः तत्र किं कृतवान् सः तत्सर्वं विस्मृत्य सः गतवान् आपदः काठिन्यम् अपि आत्मनः हितं सर्वं विस्मृत्य सः रक्षणार्थं गतवान् सत्यजिते. अस्तु अग्रे तत्र मधुसूदन महोदय केवलं निमेषद्वयम् अस्ति किन्तु भवान् अपि किञ्चित् पठतु महोदय क्षम्यताम् अद्य भवान्
तत्र
अन्तिमभागः पठति वा
अध्यक्षः इदानीं सत्यजितः सम्मानं करोति अस्य नगरस्य भिषजां प्रमुखः नरेन्द्रमहोदयः
तत्र भिषजाम् इति पदं जानाति वा भिषज् इति प्रातिपदिकं भिषक् इति भिषक् इत्युक्ते कः कोऽपि जानन्ति वा
वैद्यः इदानीं
भिषजां तत्र वैद्यानां वैद्याः सन्ति तेषां वैद्यानां प्रमुखः
नरेन्द्रमहोदयः
अस्ति सः वैद्यानां प्रमुखः अस्ति वेल् नोन् डाक्टर् इति सः सम्माननं सत्यजितः सम्माननं करोति अग्रे तदपि केवलं
सत्यजितः
तत्र तस्य सत्यजित् यः अस्ति तस्य षष्टि सुहृत् सुहृदः सरित् सरितः मरुत् मरुतः सत्यजित् सत्यजितः इति षष्टि भवान् इति शब्दस्य भवतः अस्ति खलु तत्र
नरेन्द्रः सत्यदिवसः मुखात् एव सर्वं वयं श्रुतवन्तः
पूर्णतया पठतु महोदय एकवारं सत्यजितः मुखात् एव सर्वं वयं श्रुतवन्तः
श्रुतवन्तः कस्यापि जनस्य महत्त्वं महत्त्वं वाचः माधुर्यं सम्पदः माधुर्येण सम्पदः राशिना नावान अपि तु कर्मणः प्रभावेन एव
समीचीनं वा यदि तत्र एकनिमिषं स्वीकृत्य एतत् सर्वं विवृणामः खलु अतः तत्र जनस्य महत्त्वं कोऽपि अस्ति तस्य महत्त्वं कथं निर्णेतुं शक्नुमः इत्युक्ते कथं जानीमः इत्युक्ते अथवा कथं सिद्ध्यति महत्त्वं कथं सिद्ध्यति इत्युक्ते वाचः माधुर्येण वाचः इति विभक्तिका षष्टि तत्र वाच् इति प्रातिपदिकं वाचः इति षष्टि वाचः माधुर्येण तत्र मधुरया ते वदन्ति तेन तत्र सः उत्तमः इति ज्ञातुं शक्नुमः वा न वाचः वाच तत्र वाक् मधुरा अस्ति चेत् तत्र उत्तमः वा इति न खलु अथवा सम्पदः राशिना तत्र सम्पदः राशिः अस्ति तेषाम् अतः ते महत्त्वपूर्णपुरुषः अथवा महत्त्वपूर्णा महिला इति भवति वा न खलु सम्पदः राशिना राशि इत्युक्ते तत्र किं बहु किमपि राशि इति भवान् जानाति खलु राशि माउंटेन फुल तत्र किं तत्र किं भगिनि
आङ्ग्लभाषायाम् उक्तवती हीप् अस्ति
सत्यं सत्यं तादृश सम्पदः राशिः अस्ति अथवा वाचः माधुर्यम् अस्ति चेत् तेन किं महत्त्वं सिद्ध्यति वा न सिद्ध्यति किन्तु कर्मणः प्रभावेन न यत् ते कुर्वन्ति तेन एव तत्र महत्त्वं सिद्ध्यति यत् कुर्मः तेन एव यत् कार्यं कुर्मः तेन एव तत्र महत्त्वं सिद्ध्यति अतः विवेकिनः प्रतिभाशालिनः गुणिनः अस्य बालस्य चरितं तत्र एषः बालस्य चरितं ये बालस्य इति कीदृशः बालः एषः विवेकी बालः प्रतिभाशाली बालः गुणी बालः अतः अस्य बालस्य विवेकिनः प्रतिभाशालिनः गुणिनः बालस्य चरितं सर्वेषाम् आदर्शः अस्ति एतस्य चरितं सर्वेषाम् आदर्शः भवतु इति सः उक्त्वा धन्यवादः इति अस्तु अस्तु समीचीनम् अस्तु तत्र मधुसूदन महोदय भवान् एव तत्र अन्ते तत्र शान्तिविषयं वदति वा महोदय
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय
धन्यवादः
शुभरात्रि